इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः त्रयाणाम् अल्जीरिया, मॉरिटानिया, मलावी इत्येतेषाम् देशानाम् यात्रायाम् गत सायम् अल्जीरिया देशस्य राजधान्याम् अल्जीरियर्स नगरम् प्राप्तवती। निज यात्रा प्रवासे राष्ट्रपतिः द्विपक्षीयोपवेशनानि विधास्यति, अपि च भारतीय प्रवासिभिः साकम् संवादम् समाचरिष्यति। इयम् भारतस्य राष्ट्रपतेः त्रयाणाम् अफ्रीकीय देशानाम् प्रथमा यात्रा भवेदिति। यात्रायाः प्रथमे चरणे राष्ट्रपतिः अल्जीरियां प्रति यास्यति। तदनु राष्ट्रपतिः द्रौपदी मुर्मुः पीपल्स डेमोक्रेटिक रिपब्लिक ऑफ अल्जीरिया इत्येतस्य अध्यक्षेण अब्देल मजीद तेबौने इत्यमुना साकं द्विपक्षीयोपवेशनं करिष्यति। तदनन्तरं राष्ट्रपतिः भारत अल्जीरिया आर्थिक मञ्चम् सिदी अब्देल्ला विज्ञान प्रौद्योगिकीय विश्वविद्यालयं च सम्बोधयिष्यति। यात्रायाः अन्तिमचरणे राष्ट्रपतिः मुर्मुः अक्टूबर मासस्य 17 दिनांकतः 19 दिनांकपर्यन्तं मलावी देशं प्रति यास्यति। केन्द्रसर्वकारेण जम्मूकश्मीरे राष्ट्रपति शासनम् अपसारितम्, येन केन्द्रशासिते जम्मूकश्मीरप्रदेशे नूतनसर्वकारस्य निर्माणस्य मार्गः प्रशस्तः भवेदिति। अस्मिन् विषये केन्द्रसर्वकारेण अधिसूचनापि प्रसारितास्ति। नेशनल कॉन्फ्रेंस दलस्य उपाध्यक्षः उमर अब्दुल्लाह जम्मूकश्मीरे नूतनसर्वकारस्य निर्माणाय प्रस्तावः स्थापितः अस्ति। नेशनल कॉन्फ्रेंस दलेन सद्यः एव आयोजिते विधानसभानिर्वाचने कांग्रेस गठबंधनेन सह बहुमतं प्राप्तम्। लोकसभाध्यक्षः ओम बिरला अस्य मासस्य 17 दिनांकं यावत् जिनेवानगरे आयोक्ष्यमाणायाम् अन्तासंसदीय संघस्य आईपीयू इत्याख्यस्य 49वीं शततमायां सभायां संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं समाचरिष्यति। श्री बिरला इतोपि अधिकं शान्तिपूर्ण सतत भविष्याय विज्ञान प्रौद्योगिकी नवाचाराणाम् उपयोगः इत्यस्मिन् विषये सभां सम्बोधयिष्यति। तदनु असौ अस्य मासस्य 14 दिनांके जिनेवा नगरे भारतीय प्रवासिभिः समं वार्तां करिष्यति। अपरत्र असौ सभामध्ये अन्येषां संसदां स्वीयैः समकक्षैः सहापि संवादं करिष्यति। अवधेयं वर्तते यत् भारतीय प्रतिनिधिमण्डले एतस्मिन् राज्यसभायाः उपराष्ट्रपतिः हरिवंश सिंहः उभयोः सदनयोः महासचिवः अन्ये च संसत्सदस्याः सम्मिलिताः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री गतिशक्ति राष्ट्रिय परियोजनायाः वर्षत्रयाणां सम्पूर्तेः प्रशंसाम् अकरोत्। सः अवदत् यत् एषा परियोजना भारतस्य आधारभूतसंरचनायां परिवर्तनं करोति, सममेव सम्पर्कं च वर्धयति, येन विकसित भारतस्य परिकल्पनां साकारो भविष्यति। एकस्मिन् सामाजिकान्तर्जालीय सन्देशमाध्यमेन श्रीमोदी प्रोक्तवान् यत् देशे विकासस्य गतिशक्तिः बहुविध सम्पर्कं च वर्धितमस्ति, तथा च विभिन्न क्षेत्राणां द्रुततरं विकासं सुनिश्चितमस्ति। सः अवदत् यत् विभिन्नानां हितधारकाणाम् एकीकरणेन संभारतन्त्रव्यवस्था सुदृढा अभवत्, विलम्बेन कार्याचरणे न्यूनता गता, नैकेषां जनानां कृते नवीनाः जीविकावसराः सृज्यन्ते इति वार्ताः।